The second chapter, Sanjeeva Vacha, Samsata Kripaya Avishta Mashru Purna Kulekshanam, Vishidantamidam Vacha Muvacha Madhusudanah, Sri Bhagavan Vacha, Kutaspa Kashmalamidam Vishame Samupasthitam, Anarjajushta Masvargya Makirtikaram Arjuna, Klaibyam Masmagam Aspartha Naitat Payupapadjate, Kshudram Grade Dorbalyam Chakvot Tishta Parantapa, Arjuna Vacha, Katham Bhishma Maham Sankhe Dronam Chamadhusudanah, Ishubhi Pratiyotyami Pujar Khavarisudana Guru Nahatvahi Mahan Bhavan Seyo Bhoktum Bhaiksham Apihaloke Hatvartha Kamansu Guru Nihaiva Bunjiya Bhogan Rudra Pradigdhan Nachaitat Vidmaham Kataran Nogariyo Yedva Jayema Yedivano Jayeyuhu Yaneva Hatva Najiji Vishamas Tevasthita Pramukhe Dartharashtraham Katpanya Dosho Apakata Subhavahan Prithamitvam dharmasam mudacheta yatreyasyan nishitam bruhitanme shishyasteham shadhimam tvam prabannam nahi prapashyabhi mamapunudyat yachyokam uchyoshanam indriyanam avapya bhuma vasapatnam ruddham rajyam suranam apichadhipatyam sanjeevacha yeva muktva hrishikesham gudakesha parantapa nayotsya iti govinda muktva tushtim babuvaha tamuvacha hrishikesha prahasanniva bharata Tena Yorubayor Madhye, Vishidantamidam Vacha, Sri Bhagavan Vacha, Ashochyanan Vachochastam Prajna Vadam Chabhashase, Gatasu Nagatasumscha Nanushochanti Panditaha, Natve Vaham Jatunasam, Natvam Neme Janadhipaha, Nateva Nabhavishyamaha, Sarve Vayamatasparam, Dehinospin Yatha Dehe Kaumaram Javanam Jaram, Tatha Dehan Taraprapter Dhiras Tatra Namukhyati, Matras Parishastu Kaunteya Shitosh Nasukudukadahan Agamapai no Nityas Tante Tikshasvabharatan Yemhinam Yatayantete Purusham Purusharishabam Samadukha Sukham Diram Somrudatvaya Kalpate Nasato Vidyate Bhavo Nabavo Vidyate Satahan Ubayorapi Drishtontas Panayos Tatvadarishibhi Avinashitu Tadvidhi Yena Sarvamidam Tatam Vinashamabjayasyasya Nagaschitkartumargati Antavantai Medeha Nityasyokta Sharirinaha Anashino Prameyasya Tasmad Yudhyasvabharata Jayenam Vedhikantaram Yashchainam Manyatehatam Ubhauto Navijanito Nayam Khandinahanyate Najayate Mrite Vakadachin Nayam Bhutva Bhavidavana Bhuyaha Ajo Nityasyashodoyam Purano Nahanyate Hanyamane Sharire Veda Vinashinam Nityam Jayenam Ajamabjayam Katham Sapurushapartham Kam ghatayati hantikam vasamti jirnani yatha vihaya navani grinhati naroparani tatha sharirani vihaya jirnani anyani samyati navani dehi nainam chintanti shastrani nainam dakati pavaka nachainam kledayantyapo nasho shayati marutah achedyoya madakyoya makledyosyo shriyevacha nityas sarvagatastana rachuloyam sanatanah avyaktoya machintyoya mavikardyoya muchyate Tasma devam viditvainam nanu shochitumarhati Athachainam nityajatam nityam vamanyase mrutam Tatha pitvam mahabaho naivam shochitumarhati Jatasya hidruo mrutyur dhruvam janma mrutasya Tasma daparihariyerthe natvam shochitumarhati Avyaktadini bhutani vyaktamadhyani bharata Avyaktani dhana anyeva tatra kaparidevana Aschadjavad paschati kaschidenam aschadjavad paridatataiva chanyaha Aschadjavachayana manyasrunoti Sutvapyenam veda nachayivakaschite Dehi nityamavadhyoyam Dehe sarvasya bharata Tasmat sarvani bhutani natvam shochitumarghasi Swadharmama vichaveksha na vikampitumarghasi Dharmadhyuddhatreyonyat chatriyasya na vidyate Yadrchaya chopapannam swargadvaram apavrutam Sukhinakshatriya apartha labante yuddhamidrisham Atha chetvamimam dharmyam sangramam nakarishyati Tata swadharmam kirtimcha hitva papam avapsasi Akirtimcha vibhutani kathayishyantitem jayam Sambhavidasya chakirtir marnada dirichyate Vayadrana duparatam mansyantetvam maharathah Yesham chattvam bahumato bhutva yasya silagavam Avachya vadanscha bahun vadishyantitavahitah Nindantastavasa amarcham tato dukhatarannukim Hato vāprāpśasi svargam jitvā vābhokṣase mahīm tasmā duttiṣṭa kaunteya yuddhāya kṛtanishchayah. Sukha dukkhe samekṛtvā lābhā lābhojayātiyu ततो युद्धाय युज्यस्व नैवं पापं वाप्स्यसि येषा ते भिगता सांख्ये बुद्धिर्योगे त्विमां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन बहुशाखाख्यनन्ताश्च बुद्धयोम् व्यवसायिनाम् यामि मां पुष्पिताम् वाचम् प्रवदन्त्य विपश्चितः वेदवादरथाः पार्थ नान्यदस्तीति वादिनः कामात्मानः स्वर्गपराम् जन्मकर्मफलप्रदाम् क्रियाविशेषबहुलाम् भोगैश्वर्यगतिम् प्रति भोगैश्वर्यप्रसक्तानाम् तया प्रकृतचेतसाम् व्यवसायात्मिका बुद्धिः समाधो न विधीयते त्रैगुण्यविषया वेदा नित्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निद्यो गच्छेम आत्मवान् यावानर्थ उदपाने सर्वदत्सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्वकर्मणि योगस्थ कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समत्वम् योगमुच्यते दूरे न क्यवरम् कर्म बुद्धियोगात् धनञ्जय बुद्धौ शरणमन्विच्य कृपणापलहेतवः बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगकर्मसुकौशलम् कर्मजम् बुद्धियुक्ता हि फलम् त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदम् गच्छन्त्यनामयम् यदा ते मोहकलिलम् बुद्धिर्व्यजितरिष्यति तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नात्ते यदा स्थास्तति निश्चलाम् समाधावचला बुद्धिस्तदा योगमवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्तस्य केशव स्थितदे किम् प्रभाषेत किमासीतम् व्रजेत किम् श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितदेर्मुनिरुच्यते यः सर्वत्रानपि स्नेहस्तत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संहरते चायम् कूर्मोऽङ्गानीव संवशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जम् रसोऽप्यस्य परम् दृष्ट्वा निवर्तते यततोऽस्यपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसवम् मनः तानि सर्वाणि संयम्य युक्त आसीतमत्परः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता जायतो विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधो विजायते क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषो वियुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखानाम् हानिरस्योपजायते प्रसन्नचेतसोऽह्याशु बुद्धिपद्यवतिष्ठते नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावेतशान्तिरशान्तस्य कुतः सुखम् इन्द्रियाणाम् चिचरताम् यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञाम् वायुर्नावमिवाम्बसी तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानाम् तस्याम् जागर्ति संयमी यस्याम् जाग्रति भूतानि सानि शापश्यतो मुनेः आपूज्यमानमचलप्रतिष्ठम् समुद्रमाप प्रविशन्ति यद्वत् तद्वत्कामायम् प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्तिमधिगच्छति एषा ब्राह्मी स्थिति पार्थ नैनाम् प्राप्य विमुह्यति स्थित्वा स्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ओम् तत्सदिति श्रीमद्भगवद्गीतासुपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः दस् इन् दि उपनिषत् आफ् दि ग्लोरियस् भगवद्गीता दि सैन्स् आफ् दि इटर्नल् दि स्क्रिप्चर् आफ् योग दि डैलाग् बिट्वीन् श्रीकृष्ण अण्ड् अर्जुन एण्ड् दि सेकेण्ड् डिस्कोर्स् एन्टैटल्ड् दि साङ्ख्ययोग